सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया नमस्कारः. प्रथमतया वयं मङ्गलाचरणानि अध्ययनं कुर्मः. कविता भगिनी.
ॐ गणेशाय नमः. ॐ वागर्थाविव सम्प्रक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ. ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषा वहै. ॐ शान्ति शान्ति शान्तिः.
धन्यवादः. सुन्दरं भगिनि, धन्यवादः. अस्तु, अस्माकं प्रवर्तमानविषयः कुत्र अस्ति अद्य? अभ्यासपुस्तके किञ्चित् अहं पुनः एकवारं किञ्चित् अभ्यासं किञ्चित् पदानि वदामि, अपि च भवत्याः एकमेकं वारं पदानि स्वीकृत्य लघु वाक्यं रचयतु. उत्तमम्.
क्षम्यताम्, ऐ एम सॉरी, वी हैव ओनली द लास्ट द क्लोजिंग मंत्रा टू बी डिस्कस्ड. वी डिस्कस्ड द अदर्स इफ यू वांट टू टेक इट.
अस्तु अस्तु, क्लोजिंग पूर्णमदा.
यस.
अस्तु अस्तु, धन्यवादः भगिनी. आवश्यकम् अस्तु. पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. अस्तु. सो पूर्ण पूर्ण अर्थकः इति पदस्य अर्थः कः? पूर्ण वदतु.
कम्प्लीट् कम्प्लीट्
अपि च होल्
होल्
अपि च
अन्डिवैडेड् अन्डिवैडेड्
अन्डिवैडेड् अपि च न श्रूयते, सम्यक् न श्रूयते भगिनि. सम्पूर्णः पूर्ण इत्युक्ते सम्पूर्णः.
भगिनि, पूर्णं मीन्स् जीरो.
जीरो, इण्टरेस्टिङ्ग् वे टु लुक् एट् इट्. अस्तु, वै नाट् वै नाट् लुक् एट् इट् देट् वे आल्सो. पूर्ण जीरो इत्युक्ते भगिनी, जीरो मीन्स् वाट् टु यू?
लैक् इन् दिस् वर्ल्ड् नथिङ्ग् ईस् पर्मनेण्ट् लैक् देट्.
इन् देट् सेन्स्.
इन् देट् सेन्स् इट् इस् जीरो.
Infinity, yes, correct. But infinity also, I suppose, in an artistic sense, you could call it zero, you know?
Okay.
Yeah.
It could also mean filled with something. We say, no, ye chi...
Huh? पूरी तरह भरी है, पूरयतु
यहस्य आदि अन्त न भवति इति,
अति इति आदि अन्त न भवति, भरा हुआ इसका शुरुआत नहीं है, इन्फिनिट कम्प्लीट होल, ऑल दीज मीनिंग्स आर देयर. यू सी लाइफ में वी नॉर्मली वी आर सीकिंग हैप्पीनेस, करेक्ट? मोस्ट पीपल आर अलाइव hoping to be happy, seeking happiness. And in that journey, we try different things. Today, rasgulla makes me happy. Tomorrow, marriage makes me happy. Day after tomorrow, maybe buying a house makes me happy. The day after that, getting new sari makes me happy. Day after that, being with mummy makes me happy. Like that, we keep doing things to find joy. This Shanti Patha is so beautiful. Purna Madha. It says everything is one. You see, the whole philosophy of the Sanatana Dharma is based on one realization. What is the realization? That everything is oneness. Om, we call it Om. We call it Brahman. Or we call it anything else also, it actually means the same thing, but we get stuck in the small definition. So for example, what is Brahman? Brahman is that reality in which everything is everything else. What does that mean? For example, it means that, see, today I am in body and flesh. Something that others can see, others can feel. I also feel my this body. It does some things for me. It does actions for me. All this I feel. But tomorrow, the same body will become ash or become compost or become something. And then from there, it will move on and become partly air, partly water. You know, the same constituents, the same atomic structure, the same molecules will disintegrate and become, join something else, become part of a tree, some part of me will become a brick, some part of me will be in a river, some part of me might become plastic, some part of me might become rain, water, you know. So this body also is also constantly, over time, even the long process of time, it is becoming all these things that we think is different. Right now it's like, oh, it's snowing outside. See, I am here, my body is here, but snow is outside. But this snow outside eventually is also me or not, in the long run of life. And the tree that is receiving the snow is also part of me only, the greater me, that me that is undivided. That me that is no different from anything else, anybody else, in the entire Brahmanda. It is all a concept of time. You see, when we are only focused on this moment, we want instant gratitude. And how short-lived is that? How small-minded is that? We all have that experience. One time or another, we have all become stuck on a certain idea. We have to have it this way. And later, after 5 years, 10 years, we laugh at ourselves, no? Oh my God, I was so stupid. I was so stuck on that idea at that time. At that time, though, for that moment, it was the most important and the only thing that mattered in life. So, when we are stuck on certain things, it is because our vision is no longer Purna. Purna means to try to remind ourselves not to be stuck in the small details of this moment, of this form, this structure. No, I have to have a house like this. The vastu has to be exact. The plant has to be exactly here. No, the color of the house has to be like this. My sari has to match my blouse. See, these are things we get stuck with. No, this has to match. my child has to get up today, right now he has to do it. So these are things we are stuck on. Ultimately, everybody is getting up and everybody is dissolving. Everybody is getting up, everybody is dissolving. Keys also come up and they dissolve. Rain comes, it dissolves. Structure comes, structure dissolves. Concepts come, concepts dissolve. Ideas come, ideas dissolve. Thoughts come, thoughts dissolve. So this identity that we have of I being separate from everything else is a very small-minded identity. And it is actually in the Sanatana Dharma. Sanatana Michukte, eternal. With no end, no beginning. The ever-present way. Sanatana. That is the name of the Dharma. Not Hinduism. Hinduism is this modern Angrej school teaching. Sanatana Dharma, what does it say? It says the eternal way. Dharma, that is the eternal. What is the eternal way? Change only. Everything changes into everything else. So that is Purna. So Purna Mada. Ada means there. This and there. Purnam Ada, Purnam Idam. Purnam, completeness is there, completeness is here. You see, when we feel small-minded, which is much of the time in our lives, when we get stuck on small things, then what happens? Oh, I wish I had this sari that is with her. Oh, I wish I had that house that so-and-so owns. Oh, I wish I was in a warm place where it is so nice, I don't have to be freezing. Every time we are wanting something that is not the feeling of I. We want that something else, or we dislike that something else. We say, oh, if only I could speak Sanskrit properly and understand all the shlokas, I would be so happy. If only I could live in this house, if only I could get married, I'd be so happy. Then once you are married, oh, if only I could not be married again, it would be so happy. You see, this constant changing is going on. And always we are seeking something that is what we think outside of ourselves to give us happiness. So what is that feeling? It is a feeling of incompleteness. We don't feel Purna. That's why we are seeking something outside. So, this Purnam Ada, Purnam Idam, this is complete and that is complete. It's like I'm saying, look at the sky, look at the beautiful nature outside. Is there something incomplete about it? Like you feel like you have to have one more tree to make the picture complete, you need one more cloud. What do you need? One more leaf, one more branch? Some more forest, one more fountain. What do you need? Any picture of nature, however it is, feels complete. Yes or no? Every picture of nature is complete. We are nature. We are complete. So this beautiful chant, Shanti Patha, is reminding us to understand the true reality, which is that don't be stuck in this form that you are stuck in now in the body. This is not you. The experience, if you think this is you, your experience are limited to this small body. But who is a yogi? Yogi can experience everything. On the other side of the planet also, he can experience what is going on right now. He can actually bodily even go there, transform, like in Star Trek they used to do, no? So this, how you get that? By first of all understanding that is the reality. It's not that he is the miracle. The yogi is not the miracle. The reality itself is a miracle. What is the reality? That all is one. That yogi is made himself pure enough, clean enough, conscious enough to actually feel that. also is a reminder, constant reminder to us not to feel incomplete. Oh, if only I understood this, everybody else in class is getting this, if only I got it. No, it's not like that. We are all everything. I am my best friend, I am my God, I am also my enemy. All of it is me. How do I treat it? All in completeness. You cannot be disgusted by compost and love food. Food comes out of compost only. You cannot be disgusted by kichad and love flowers. A lotus grows in kichad. You see what I'm saying? You cannot be disgusted by be disgusted by the process of all this reproduction. And that is how Srishti works. There's no point having these feelings. So all our opinions and feelings and judgments are also incomplete. So Purna Madah Purna Midam, completeness, wholeness, oneness is here and oneness is there also. Purna Madah Purna Midam, Purnath. Purnath ichukte panchami vibhakti. Ichukte from Purna. Viyoga. Viyoga ichukte separated from Purna. If from Purna you take out something. So we say, oh no, no, the yogi is Purna but I am not. No, we all understand this concept. No, somehow we go to these great yogis because we think they are Purna, we feel they are Purna, our experience with them is that they are complete and Purna. You go to Amma, you can go to Shankaracharya, you can go to so many rishis and devis, and in their presence you also start to feel slightly more Purna. But for sure we know they feel Purna, they are Purna. Now, if you take away something from that rishi, from that devi, you think they will become incomplete? No. Purna, purna mudachyate. Out of purna, you take out purna, and what remains? Purna only. You cannot even do it. The math also doesn't work here. That's why infinity. Any math doesn't work with infinity. Have you noticed? If you do multiplication with infinity, if you do division with infinity, if you do addition or subtraction or any of the fractions with infinity, it doesn't work the way it does with all other numbers. That is Purna. Purnat Purna Mudachyate. Purnasya Purnamadaya. Purnasya Chukte Vibhakti, Shashti Vibhakti. Shashti Vibhakti Chukte Sambandha. Purnaka. Purnamadaya. Adaya Naraya Chaturthi Vibhakti. For Purna. Purnaka Purnakelie. Purnasya Purnamadaya Purnameva Vashishyate. What remains? Eva Avashishyate. Shesha. You know the concept of Shesha? What is Shesha, anybody? Kopi Janatiwa?
Remainder.
Remainder. What does it mean? Why is it such a big deal, remainder?
Karma Sesham and so on.
Karma Sesham is one thing for sure. You see, Sesha is Karma Sesha for sure. What is Karma Sesha? So for example, I really enjoy, for example, Rasagulla. Something we all can associate with this experience. Or some Laddu or something, whatever. At the moment you are eating that laddu, some experience is going on, correct? Some joy is coming, some saliva is coming, eyes are rolling, smile is coming, maybe body is also rocking side to side, so much joy is coming, all this is happening. But after Rasgulla is over and inside your belly, all the taste is gone or what? Very little bit remains on your tongue. After some time, that also goes. 1 hour, 2 hours, how much you can linger with that Rasgulla in your mouth? In your belly now, new juices have come in your mouth, new saliva has come. Maybe you have taken a drink of water. New thing has come in your mouth. Now, what happens? Still the shesha of that Rasgulla eating is there or not in your mind, in your heart, in your experience, in your being. And that shesha is what will continue to be with you, not the Rasgulla itself, correct? And it is all these sheshas that accumulate. Rasgulla doesn't accumulate. What happened to the Rasgulla? You ate it, entered the belly, digestion happened, and then you pooped it out. Some of it went into making your body, your flesh, your bone, your blood, your lymph, whatever. And otherwise it is gone out. So Rasgulla itself is gone. No, nothing like Rasgulla is there now. But what remains? That experience, leftover, memory, all of that is shesha. And that accumulated, we think, is our identity. We associate all of these accumulations of experiences with our identity. Who am I? I am this. I did this master's in ecology, then I did PhD in anthropology, then I did this, then I did this, then I married, then I have children, then I did this, then I did this. Now I am teaching. These are nothing but experiences only. But the beautiful Shantipatha is reminding us that I am not this limited thing that I am thinking I am. I am Purna. Purna is here. And you too, my worst enemy, the one with the smallest mind, the one with the most crooked thoughts, the one I dislike the most, you too are Purna. I am you. You are me. We are the garbage bins. Also, we are beautiful new nature lotus flowers. We are all of it. So, Purnam Adah. Purnam is here. Purna is there. Purnam Idam. Purna is here. Purnat, from Purna. Purnam Udachyate. Purna emerges. Purnasya Shashti Sambandha Purnaka Purnamadaya Purnakeliye Purnameva Vashishyate. Only Purna remains. Such a beautiful and so beautiful it has been put together in them. I cannot imagine a more beautiful way. Spashtam?
धन्यवादः
भगिनि.
चिन्ता नास्ति. अस्तु अस्तु. कोऽपि प्रश्न? अस्तु.
शान्तिपाठवस्ति अस्ति
भगिनी. भवत्याः ध्वनिः किञ्चित् स्पष्टं नास्ति भगिनी. अहं न
क्षम्यतां भगिनि. अयं शान्तिपाठः ईशावास्य उपरिषदि अस्ति.
सी, वेन् यू स्पीक् लिटल् बिट् क्लोज़र् टु द मैक्रोफोन् मे बि इट् बिकेम् क्लियर् फार् अ लिटल् बिट्. स्पीक् वन् मोर् टैम् भगिनि इन् टु द मैक्रोफोन्.
अयं शान्तिपाठः ईशावास्य उपनिषदि अस्ति.
अयं शान्तिपाठ ईशावास्य ईशावास्य ईशावास् ईशावास्य मेसे निकला है. Astu bhagini, astu, dhanyavada. Oh, beautiful, that whole Upanishad is so beautiful. Sharasamidam. Beautiful. Dhanyavada bhagini. Astu. Atra, pustakam bhavan. Kavita bhagini, lagu vakyam prachayatu. द्वे पदे योजयित्वा एकं लघु वाक्यं रचयतु भवान् अपि च पुस्तकं
पुस्तकम् आय अनुसृत्य भवान्
आ भवान् इत्युक्ते कोऽपि जानाति वा भवान् इत्युक्ते पुंलिङ्ग् पुंलिङ्ग् हा एक प्रथमविभक्ति लेकिन् भवान् इत्युक्ते प्रथमविभक्ति रूपं भवत्
उत्तमपुरुष
उत्तमपुरुष न भगिनि भवान् इत्युक्ते यु आप् आप् पुंलिङ्ग् अस्ति चेत्
मध्यमपुरुष
मध्यम अपि च नास्ति मध्यम् इति त्वम् एव मध्यमपुरुष त्वम् एव त्वम् इस् आल्मोस्ट् त्वम् इस् लैक् तु इन् हिन्दी वाट् वि यूस् इन् तु वेरि इण्टिमेट् लैक् वि टाक् टु भगवान् वित् तु वि टाक् वित् चिल्ड्रन् वित् तु वि टाक् वित् सम्बडि वेरि इण्टिमेट् तु त्वम् इस् आल्मोस्ट् लैक् देट् इन् मीनिङ्ग् वेन् यू हेव् सो मच् अण्डर्स्टाण्डिङ्ग् एण्ड् सो मच् लव् देट् यू केन् काल् देम् तु You see what I'm saying? It's not lack of respect, actually. It shouldn't be looked at as lack of respect that you call somebody tu. It is that you feel so close to them that you can call them tu. That is Madhyama Purusha. Bhavan ityukte aap. Formal you. Yadi pumling asti chet. Bhavan. Bhavan kaha... प्रथमपुरुष भवान् प्रथमपुरुषरूपं स्वीकरोति स्वीकरोति भवान् कः रामः पृच्छति रामः आञ्जनेयं पश्यति अपि च पृच्छति रामः राम ने हनुमान को देखा और पूछा आई एम जस्ट मेकिंग दिस अप भवान कह इत्युक्ते आप कौन है रामः शबरी व्हेन ही सॉ शबरी ही कुड हैव सेड भवती कह आप कौन है
वोंट इट बी भवती का
भवती का क्षम्यतां भगिनी भवती का आप कौन है धन्यवाद भगिनी भवती का भवान कह सो भवान इज आप पुंलिंग अस्ति चेत् भवती आप स्त्रीलिंग अस्ति भवती का Then Shabari will say Aham Shabari. Hanuman will say Aham Hanuman. Okay, Bhavan. Bhavan is just like or any other Sanya Padam. Sanya Padam is chukte noun, name. It will have all the 21 cases, 21 Rupani. How are there 21 Rupani?
Seven into three, right?
Seven into three.
Ekavachana, Dvivachana, Bahuvachana, Sapta Vibhaktyam.
Sapta Vibhaktyam, Ekavachana, Dvivachana, Bahuvachana. Sapta Guna. त्रीणि इत्युक्ते एकविंशतिः 21 rupani and bhavan pratipadikam is bhavat takarant. So far we have studied in abhyasa pustakam akarant pumlinga. Yatha udaranam kopi vadatu akarant pumling asti chet kopi padam vadatu
devaha ramam पृष्ठसङ्ख्या वदतु भवति
कोऽपि वदतु उदाहरणम् अकारान्त पुंलिङ्ग् अस्ति चेत् पदम्
रामः
उत्तमं रामः किमर्थं रामः अकारान्त प्रातिपदिकम् राम इति प्रातिकम् अस्ति प्रातिपदिकम् अस्ति चेत् प्रथमविभक्ति एकवचनरूपं रामः विसर्ग अपि योजयित्वा रामः इति भवति रामः रामौ रामाः रामं रामौ रामान् रामम् इत्युक्ते कर्मपदम् कर्मपदम् इत्युक्ते आब्जेक्ट् द्वितीयविभक्ति यदि द्वितीयविभक्ति अस्ति चेत् रामं राम अकारान्तपुंलिङ्ग् पदं द्वितीयविभक्ति एकवचनरूपं रामम् इति भवति सो रामः रामौ रामाः प्रथमविभक्ति रामं रामौ रामान् बहुवचनरूपं रामान् इत्युक्ते अनेकरामान् कोऽपि क्रिया कस्यापि क्रिया स्वीकरोति दे आर् द रिसिपियण्ट् आफ् देट् एक्षन् आब्जेक्ट् सो सब्जेक्ट् एण्ड् आब्जेक्ट् प्रथमाविभक्ति सब्जेक्ट् द्वितीयविभक्ति आब्जेक्ट् सो भवान् इत्युक्ते प्रथमविभक्ति एकवचनरूपम् अपि च पुस्तकं प्रातिपदिकं किम् पुस्तक समानेव अकारान्त नपुंसकलिङ्ग अकारान्त नपुंसकलिङ्गपदम् अस्ति प्रातिपदिकं किं पुस्तक प्रातिपदिकस्य प्रथमविभक्ति एकवचनरूपं किम्
पुस्तकम्
अम् इति अन्ते अम् इति योजयित्वा प्रातिपदिकस्य अन्ते अम् इति योजयित्वा प्रथमाविभक्ति एकवचनरूपं भवति पुस्तकं द्विवचने
पुस्तकौ
पुस्तकौ नास्ति भगिनि किञ्चित् चिन्तयति बहुवचन पुस्तकानि पुस्तकं पुस्तके पुस्तकानि अपि च द्वितीयविभक्तिरूपाणि कानि पुनः
पुस्तकं पुस्तके पुस्तकानि
समानेव प्रथम अपि च द्वितीयविभक्ति रूपाणि समानेव नपुंसकलिङ्गे एव पुंलिङ्ग् अस्ति चेत् नास्ति स्त्रीलिङ्ग् अस्ति चेत् नास्ति नपुंसकलिङ्ग एव प्रथम अपि च द्वितीयविभक्ति समानेव कथं जानीमः वाक्ये प्रथमविभक्ति वा द्वितीयविभक्ति वा कथं जानीमः हौ डु वी नो यदि समानेव रूपाणि तदनन्तरं कथं जानीमः
The kriyapadam will change accordingly.
Ah, maybe kriyapadam will change. Sandarbha, whatever the sandarbha will tell you.
Hmm.
Anything can tell you. So many things can tell you. Sandarbha. Sandarbhanusarena vayam janimaha napumsakalinge prathama va dvitiya va. Astu. Astu. Atra page 9 abhyasa puta sankhya nava navatama अभ्यासपुस्तके प्रथमतया एकसम्भाषणं लघुसम्भाषणं दत्तम् अस्ति वा शिवरूपभगिनी अपि च कविताभगिनी पठतु भगिनी
अहं लता भवान् कः
अहं जगन्नाथः
भगिनी जगन्नाथ अपि च
जनार्दनः सारि अहं जनार्दनः
अहं लता भवती का
अहं निर्मला
इत्युक्ते अत्र अत्र लघुसम्भाषणे लघुसम्भाषणे कः कार्यं अस्ति अत्र साधारणप्रश्न साधारणप्रश्न भवान् कः इत्युक्ते
आपका नाम क्या है टु अ मेल पर्सन
नाम नास्ति भगिनि आप कौन लाइक दैट हिंदी में हम लोग बोलेंगे आप कौन अत्र नाम नास्ति मम नाम जनार्दन इति नास्ति केवल अहम जनार्दन भवत् क्या भवत् भवन् भवतः नाम किम् इति न अत्र तत्र भवान् कः अहम जनार्दनः अपि च स्त्रीलिङ्ग् अस्ति चेत् यदि ओ नूतन कोऽपि आगच्छति वा नाम उच्यतां नटराजन महोदय अस्ति नटराजन महोदय अत्र अस्ति वा श्रूयते वा
नो सीम्स टु हैव लेफ्ट द मीटिंग
अस्तु
या ही लेफ्ट
अस्तु सो भवान् कः अहं जनार्दनः अग्रे सुधा भगिनी अपि च शैलजा भगिनी पठतु सुधा भगिनी अस्ति वा
अहं निर्मला
तस्मात् परं भगिनी भवान् कः इति
रक्तवर्णे
अग्रे
पठन्
न अग्रिमपरिच्छेद नेक्स्ट् सेक्शन् भवान् कः इति
भवान् कः अहं वैद्यः भवती का
न अहं वैद्यः अपि च शैलजा भगिनी
अहं वैद्यः
अहं विद्यार्थी. यू सी विद्यार्थी.
हाँ यस भगिनी.
पठतु. अहम
अहम वैद्यः.
अपि च
अहं विद्यार्थी.
विद्यार्थी उत्तमं. सुधा भगिनी अस्ति वा? पठतु भगिनी. सुधा भगिनी.
सुधा.
आई थिंक शी इज आउट ऑफ डेस्क.
हेलो.
या आई कैन हियर नाउ.
हेलो. नाम उच्यतां?
सुधा भगिनी. आई थिंक इट गॉट डिस्कनेक्टेड.
अस्तु अस्तु. पठतु भगिनी. भवती का इति.
भवती का. अहं गृहिणी. गृहिणी. अहं विद्यार्थिनी.
उत्तमम् उत्तमम्. अत्र अत्र कः दत्तं? किं दत्तम् अत्र? किं दत्तं? भवान् कः? अहं वैद्य. वैद्य इत्युक्ते
डाक्टर्.
डाक्टर्.
डाक्टर्. अपि च विद्यार्थी. अकारान्त. वैद्यः. अपि च विद्यार्थी.
स्टूडेण्ट्. फीमेल् स्टूडेण्ट्.
स्टूडेण्ट्.
स्टूडेण्ट्. स्टूडेण्ट्. फीमेल् च. अत्र पुंलिङ्ग् अस्ति चेत् विद्यार्थी. स्त्रीलिङ्ग् अस्ति चेत् विद्यार्थिनी. उत्तम.
विद्यार्थिनी.
विद्यार्थिनी. नकारान्त प्रातिपदिकं. नकारान्त प्रातिपदिकम् अत्र. विद्यार्थिन्. विद्यार्थी. विद्यार्थिनी. अपि च गृहिणी. विद्यार्थिनी अत्र दत्तम्.
भगिनी, वाट् इस् द प्रातिपदिकं फोर् गृहिणी?
गृहिणी. कोऽपि जानाति वा? प्रज्ञा भगिनी जानाति वा?
अहमपि
न जानामि अत्र. गृहिणी. अहम् अधुना
गृह समथिङ्ग् नो
गृहन्
गृहन्
मै गेस् इस् नकारान्त स्त्रीलिङ्ग् अस्ति चेत् किन्तु सम्यक् न अहं जानामि. लैक्
सारी भगिनि, द प्रातिपदिक पदम् एक्सिस्ट् फर् आल् द वर्ड्स् आर्
एव्री
आर् इस् देयर् एनी लैक् लैक् फ्यू फर् फ्यू वर्ड्स् it is it not like that for few words it doesn't exist or something is it?
So in any language we have found any language in the world has a few major characteristics. One is it all languages have verbs that are kriya padani, action words. All languages have nouns. These are names. All nouns are names. Two basic, very very basic categories exist in every language. Two basic categories of words. You know, in the olden days, to learn Sanskrit, you had to memorize the entire two shabdakoshas in Sanskrit of all the kriya dhatus and all the sanya rupani. Before starting your first class in Sanskrit, going to your teacher to be accepted, can you imagine memorizing two massive dictionaries just to enter class? That's what they did in the culture. So you have to be really determined, because then you can make progress. Otherwise you spend a lot of time getting confused, not memorizing, getting, you know, figuring it out like we are today. Now that condition is there, nobody will learn. So, two broad categories of words exist, nouns and verbs. Nouns, all nouns are names. In Sanskrit, all names are either pumlinga, strilinga, apicha, napumsakalinga. Three genders exist. In every case of every noun, there will be a pratipadikam. It should say the moola rupa of that noun. And depending on the ending of that, it will have its classification of 21 rupani. Does it end with a? Does it end with ta? Does it end with na? Does it end with e? Does it end with u? Does it end with r? What does it end with? That pratipadikam, what does it end with? Depending on that, it will have its 21 forms. Now within this, for all masculine, feminine and neuter, within this what will happen? Patterns come up. Many, many, most akaranta, pumlinga, rupani, samaneva. Many, many words with a, they are very similar in pattern. Many with e will be similar, u will be similar. So it's not like you have to memorize for every noun a whole set of 21. No, patterns are there. Sometimes there are some things that are different, so they are called vishesha rupani. Even in kriyas, and the nouns are divided like three genders, depending on the ending of the pratipadikam. How are the verbs divided? The verbs are divided depending on the ganas. There are 10 ganas, 10 groups. And each one has certain characteristics that you can all learn when we start doing more and more. Then there are some words that are called avyaya. Avyaya padani. Avyaya padani ichukte yasya padasya kimapi pari...
You were saying same. Nakutra.
Kimapi parivartanam nasti. There are such words also. So they are called avyaya pada. So, does that answer your question?
Yes, Bhagini. Thank you.
Excuse me, Bhagini. I just checked the meaning for Grihini. One of the roots is Grihin, which means householder.
Grihin.
But it's masculine. It is
Grihin. Grihin. Like Vidyarthin. Like Vidyarthin.
Exactly.
Astu, dhanyavada bhagini. Grihin. Rakaranta. Nakaranta. Grihin.
Exactly. Grihin.
Grihin. Grahan, though the nakara, nakar, nakara bhavati. Okay, grahaniti pratipatikam. Uttamam. Astu. Dhanyavada bhagini. Astu. Etas, Sailaja apicha.
Grahan.
Vadatu. Pragya bhagini, vadatu.
Grihin declination is something different. Grihi, grihino, grihinaha. Masculine. Grihin is masculine. Grihin is not feminine.
It's masculine, but it grihin changes the root.
Grihin pratipadikam pullinga hasti. Grihin pratipadikam pullinga hasti.
Yeah, it is masculine, but it also says it's the root for grihastha.
Astu. Yes. And many forms are there. We won't go into that. Atra tadrisha chintanam mahasthu.
Grihini visheshana asti,
Visheshana na. Atra visheshana विशेषण न भगिनि अत्र
संज्ञारूपमेव
विद्यार्थिनी यथा विद्यार्थिनी यथा विद्यार्थी यथा वैद्य अस्तु अत्र सौन्दरं भगिनी अपि च शशिकला भगिनी सौन्दरं भगिनी प्रथमतया पठतु भगिनी एतस्य
एतस्य नाम रामः
एतस्य उत्तरं लिखतु
उत्तरं लिखतु
Where my same page?
Yeah. It's written in red.
Raktavarne.
Raktavarne.
Bhavati ka iti tasmat param. Utasankhya nava bhagini.
Utasankhya nava. Bhavati ka is there?
Tasmat param. Adho bhage.
Etasi uttaram likatu. भवान् कः
एकनिमिष भगिनि एतस्य इति
षष्टिविभक्ति
षष्टिविभक्ति प्रातिपदिकम् एतत् लिङ्गं किं
नपुंसकलिङ्गं
नपुंसकलिङ्ग इत्युक्ते
नपुंसकलिङ्गम् एकवचनम् षष्टिविभक्ति
अस्तु एतस्य इत्युक्ते आङ्ग्लभाषायाम् अपि च हिन्दीभाषायां
एतस्य
एतस्य इत्युक्ते
रैट् आन्सर् फार् दिस्
उत्तरं विभक्ति का भगिनि
उत्तरं द्वितीय विभक्ति
कथं जानीमः किन्तु प्रथम अपि च उत्तरं प्रथमविभक्तिरूपम् उत्तरम् एव न प्रथम अपि च द्वितीया द्वयोः विभक्तिरूपं रूपे समानेव तदनन्तरं कथं जानीमः प्रथमा वा द्वितीया वा अत्र कथं जानीमः प्रथमा विभक्ति वा द्वितीया वा उत्तरं
प्रथमं मीन्स् सब्जेक्ट् प्रथमविभक्ति मीन्स् ओन्ली सब्जेक्ट्
प्रथमा इत्युक्ते सब्जेक्ट् समीचीनं द्वितीया इत्युक्ते आब्जेक्ट् समीचीनम् अस्तु अत्र विल् कम् बेक् टु दिस् अग्रे भगिनी लिखतु इति
पदतु रैट्
लकार किं
लोट् लकार
लोट् लोट् इत्युक्ते
आज्ञा
आज्ञा
पुरुषः कः
पुरुषः एतस्य उत्तरं लिखतु लिखतु
पुरुषः इत्युक्ते
फार् बोत् द सेम् नो स्त्रीलिङ्गम् अण्ड् पुल्लिङ्गम्
अस्तु अस्तु समानेव भगिनि
समानेव
पुरुषः इत्युक्ते
मध्यमः पुरुषः
पुल्लिङ्ग अपि च स्त्रीलिङ्ग इति लिङ्गविषये पुरुषविषये नास्ति
मध्यमपुरुष
मध्यम कथं जानाति कथं जानीमः अत्र लिखतु लिखतु इति प्रथमपुरुष प्रथमपुरुष कथं जानीमः लोट् लकार रूपम् इति लिखतु पठतु वदतु इति प्रथमपुरुषरूपम् मध्यमपुरुष मध्यमपुरुषरूपं लिख पठ वद भिन्न किञ्चित् भिन्न अस्ति अत्र
basic question lot lakar like we discussed about nouns and verbs and nouns ending depending on their ending then we come to know the 21 forms so this lot lakar comes in which bracket which category
lot so lakara there are 10 lakaras there are 10 lakaras itya manya samyak na jane samyak प्रज्ञा भगिनी दश लकारेन् लकार टेन् आल् लकार आर् धातु विषये धातु इत्युक्ते वर्ब् दे आर् आल् वर्ब् रिलेटेड् इट् कम्स् इन्सैड् वेन् यु आर् इन् द वर्ब् केटेगरि then there are things called lakara lakara is a technical term for you right now lakaras are 10 each lakara is either representing a tense like past tense future tense present tense or sometimes the lakaras also represent a mood What is a mood? Mood can be different things. So sometimes they represent a mood, sometimes they represent a tense. When they are representing anything in any form, any of the lakaras, each lakara has three purushas. Prathama purusha, madhyama purusha, apicha, uttama purusha. Three purushas are there. In the purushas, what is purusha? In Hindi if you study or English if you study, any language you study, you will find there is something that we call first person, second person and third person. In English, first person is who? Myself. Second person is who? You, the one who is being spoken to. Third person is who? Anybody किन्तु संस्कृतभाषायाम् इति नास्ति विपरीत संस्कृतभाषायां विपरीत अस्ति कथं प्रथमपुरुष इत्युक्ते नैदर् ऐ नोर् तु तु इत्युक्ते मध्यमपुरुष तु न मे न तु अन्यत् कोऽपि अस्ति चेत् प्रथमपुरुष सो इसकी कहानी ये है कि जब मैं अपनी माताजी के पास पहली बार गई माताजी पुष्पा दीक्षित माताजी पुष्पा दीक्षित रहती हैं बिलासपुर छत्तीसगढ़ में बहुत विद्वान उनके कारण ये पाणिनी जो व्याकरण है ये वापस आ रहा है नहीं तो पाणिनी व्याकरण किताबों में बंद हो चुका था और जिस प्रकार से संस्कृत पढ़ाया जा रहा था वो समीचीनम नास्ति कैसे तो भी संस्कृत पढ़ा रहे थे कुछ तो भी मिला के पढ़ा रहे थे इसीलिए आपको अगर संस्कृत पढ़ा होगा आपने स्कूल में सिक्स सेवेंथ एट्थ में सेवेंथ एट्थ नाइन्थ क्लास में जब भी मिडिल स्कूल में पढ़ते थे इंडिया में तो क्या करवाते हैं बहुत सारी विभक्ति टेबल याद करवा देते हैं बहुत कुछ रटा देते हैं लेकिन उसमें कितना आनंद है वो सब उसमें से निरस हो जाता है क्योंकि वो जो पढ़ाने का जो उनका तरीका है वो भूल चुके हैं हम लोग तो जो पाणिनी भगवान ने जो हमको ये व्याकरण दी है, पाणिनी महर्षि ने, वो बहुत ही सुंदर और वैज्ञानिक रूप है। वो उस वैज्ञानिक रूप को पुनः जन्म माताजी पुष्पा दीक्षित ने दिया है, क्योंकि जब वो पढ़ने लगी तो उनको लगा कि इसमें इतनी सुंदरता है, इतनी गहराई है इस भाषा में, ऐसा क्यों है कि हम लोग इसको पढ़ा नहीं पाते ठीक से, ऐसा क्यों है कि लोग इसको बोलते हैं कि कितनी कठिन भाषा है, इसका प्रयोग कम है, इसका कोई मतलब नहीं है, मायने नहीं है, क्यों ऐसा बोलते हैं। उन्होंने जाके जब पाणिनी व्याकरण पे शोध किया तो उन्होंने देखा कि पाणिनी महर्षि ने बहुत वैज्ञानिक रूप से इस पूरी भाषा का इस पूरी भाषा को समझाया है। तो उनके पास मैं जब गई, बिलासपुर में रहती हैं वो, छत्तीसगढ़ में, बिलासपुर आल्सो हैपेंस टू बी माय होम टाउन, आई वाज बोर्न। तो जब उनके पास मैं गई तो उन्होंने मेरे को सबसे पहली पहली कक्षा में उन्होंने मेरे को सिखाया कि इस दुनिया में, इस विश्व में मेरे और तेरे सिवाय जो भी है वो सब प्रथमा है। इत्युक्ते इंग्लिश भाषायाम थर्ड पर्सन इति प्रथमा पुरुष संस्कृत भाषायाम। क्यों? क्योंकि सबसे पहले उनका विचार आना चाहिए तुमको। तुम जो भी कार्य करो, तुम जो भी कल्पना करो, तुम जो भी चिंता करो, उसमें सबसे पहले उस प्रथम पुरुष की भलाई के लिए होना चाहिए। वो उस प्रथम पुरुष को देखते हुए आपको कुछ भी निर्णय लेना है, कार्य करना है, विचार करना है, इसीलिए वो प्रथम पुरुष है। नहीं तो क्या होगा, हम लोग तू तू मैं ही पूरे डूब जाएंगे। और आजकल वास्तव में यही हो रहा है कैपिटलिज्म के साथ। क्यों? क्योंकि भाषा हमको यही सिखाती है। अंग्रेजी भाषा ही कैपिटलिज्म की भाषा है। वो हमको क्या सिखाती है? फर्स्ट पर्सन आई, सेकंड पर्सन यू। तो तीसरे की तो गुंजाइश ही नहीं है, खत्म हो गया। वहां तो हम सोचते ही नहीं कि तीसरे वाले को क्या हो रहा है। तेरे को और मेरे को फायदा हो जाए, बात खत्म। और आजकल बड़ी बड़ी कंपनियां यही कर रही हैं, पैसे वाले लोग ये कर रहे हैं, गरीब लोग भी करीब ऐसे ही सोच लेते हैं कभी कभी। तो ये जो है हम लोग का जो चिंतन का जो प्रकार है, जिसको हम अपना अपना स्वयं मानते हैं कि नहीं नहीं दिस इज माय थिंकिंग, इंडिविजुअल थिंकिंग, नोबडी थिंक्स लाइक दिस, इज वेरी मच माय ओन वे ऑफ थिंकिंग, I am me, I am an individual, nobody is like me. We have all of these concepts associated with this I-ness. Actually, they all come from the language we speak and the people that we are with. They form us. The language forms our foundation of every thought. So, Sanskrit Bhashayam, Prathama Purusha Shreshtha. अतः प्रथम पुरुष संज्ञा, मध्यम पुरुष इत्युक्ते तू, त्वम, त्वम एव, भवान नास्ति, भवति नास्ति अत्र, भवान भवति इति प्रथम पुरुष रूपाणि स्वीकुर्वन्ति। जैसे हिंदी में आप फॉर्मल यू हो जाता है, हिंदी में आपका अर्थ होता है आप मेरे से बड़े हैं, आप एक हो सकते हैं, आप अनेक हो सकते हैं, बहुत सारे लोगों को भी हम आप ही बोलेंगे। और इसीलिए हिंदी भाषा में आप हम एक को बोलते हैं, क्योंकि हम एक जन को, एक व्यक्ति को, एक एक से ज्यादा लोगों का सम्मान देते हैं। जैसे कि हम लोग की देवियों और गणेश भगवानों के कितने बाजू होते हैं, कितने सिर होते हैं, अनेक होते हैं। क्यों? इतना सारा काम करेंगे कैसे करेंगे दो हाथों में? तो ये कलाकार के एक अंदाज से, कलाकार ने इतने सारे हाथ बना दिए, इतने सारे पैर बना दिए, इतने सारे सिर बना दिए, ये एक कलाकार का एक अंदाज है, कल्पना है। क्या कल्पना है? कि उसमें इतना सारा जो काम होएगा, इतनी सारी सोच है, इतनी बुद्धि है, उसको मैं कैसे एक एक चित्र के रूप में उसको कैसे प्रकट करूं? तो मैंने बहुत सारे सिर बना दिए, मैंने बहुत सारे बाजू बना दिए, हाथ बना दिए, सब अलग अलग काम कर रहे हैं। यही भाव आप में है। एक आप होगा सामने, लेकिन हम उसको अनेक व्यक्तियों की बुद्धि, समझ, क्षमता, ये हम उनको मान के चलते हैं, इसीलिए आप बोलते हैं। तो वो हो गया प्रथमा विभक्ति। उनकी उनको आप श्रेष्ठ समझें। किसको आप श्रेष्ठ समझें? आप। तू एक अलग माध्यम हो गया, वो हो गया मध्यम पुरुष। एंड उत्तम पुरुष इत्युक्ते अहम् एव। एक वचन रूपम एक ही है। उत्तम पुरुष में एक वचन का रूप एक ही है, अहम्। मध्यम पुरुष में एक वचन का रूप एक ही है, त्वम्। बाकी जितने हैं वो सारे प्रथमा पुरुष में जाते हैं। सो प्रथमा पुरुष, मध्यम पुरुष, उत्तम पुरुष आर कैटेगरीज ऑफ धातु रूपाणी। इन तीनों में भी एक वचन, द्विवचन, बहुवचन होते हैं। इच्छुक्ते प्रत्येक धातु के हरेक लकार में, लकार में माने हरेक प्रेजेंट टेंस में, फ्यूचर टेंस में। प्रेजेंट टेंस में कितने रूप होंगे? 9। फ्यूचर में कितने होंगे? 9। पास्ट में कितने होंगे? 9। भूतकाल है? 9। हरेक लकार के 9 रूप होते हैं। लोट लकार भी एक लकार है, इट इज नॉट अ टेंस, करेक्ट? आप करिएगा, ऐसा हो कि ब्रह्मांड में ये हो आपके द्वारा, ये हुआ लोट लकार। आज्ञा, प्रार्थना, ये ऐसा लोट लकार इज नॉट लिखो, नो, इट इज नॉट लोट लकार। हिंदी में बोलते हैं ना उत्तर लिखो, नो, उत्तर लिखें, लिखें माने ब्रह्मांड में ऐसा हो कि आपके द्वारा ये उत्तर लिखा जाए, ये प्रार्थना है। जब हम प्रार्थना करते हैं तो ऐसे ही तो करते हैं, हम थोड़ी बोलते हैं करो, हम बोलते हैं हे भगवान ऐसा हो कि मेरा बेटा स्वस्थ हो जाए, हे भगवान ऐसा हो कि मेरी मेरे बच्चे अच्छे से पढ़ लें, जो भी हम प्रार्थना करते हैं। सो दैट इज अ प्रार्थना, इट इज नॉट अ टेंस, बट इज ऑल्सो अ लकार, लोट लकार। इसके 9 रूप होंगे। पठतु लिखतु प्रथमा विभक्ति एक वचन रूपम अस्ति। कोपि प्रश्न अस्ति?
यस मैम।
हाँ पृच्छतु भगिनी।
ओके कोशिश मैडम। लिखतु इस प्रथम पुरुष,
पृच्छतु भगिनि, आस्क योर क्वेश्चन।
लिख इस मध्यम पुरुष है तो लिख इस मध्यम पुरुष देन उत्तम पुरुष लिखानी है।
लिखानी
कौन? ओके ओके।
लिखतु लिख लिखानि एकवचन रूपाणि। पठतु पठ पठानि। पठानि इत्युक्ते अहम् पठानि। अहम् पठानि इत्युक्ते हिंदी में, आंग्ला भाषायां, हिंदी भाषायां
मे आई
आई हैव टू रीड,
नो मे आई रीड,
मे आई रीड भी नहीं, May it be that I read.
Okay.
May it be that I read. You see, in Sanskrit, it is very clear that our being is only an agent. In Bhagavad Gita, very clearly, you know, Bhagavan says that everything happens because of its own nature. Yet we egoistic fools think we are the cause of that action. No, things happen by their own nature. For example, you take a medicine, health doesn't happen because you took the medicine. Your body functions because it's nature to function. You don't digest food. When food enters the mouth, it is the nature of the body to digest that food. It's nature, it's nothing you are doing. You are simply the agent. But we are so full of our egos, we think we are the cause of all action. I did this. No, I built that house. No, you didn't build the house. It's the nature of stuff to glue together. It's the nature of stuff to become what it is. It's the nature of stuff to become strong. It's its nature. Simply you are putting things together. You are simply fixing. It's a difference, you know, this is something I learnt in this country. In India, we think of cooking food is like cooking. I also used to think cooking is only one way. There's only one way to cook food. You have your sabji and dal and rice and roti and you cook the food. But here I understood in America there is another word they use. They say fixing food. And I used to wonder, what is fixing food? Fixing food, now I am starting to understand, is when food is ready prepared, like from a bottle you take out sauce, then from another bottle you pull out something else that is already cut up and preserved or in oil or in something. Then from a packet you pull out ready washed salad greens or something from a can. When you put it in a bowl, you mix it, you add salt and pepper or whatever and oil, and that is your meal is ready. This process is called fixing. They are not actually cooking. So see the difference. In life, what we are actually doing is simply fixing. When you build a house, you are simply fixing one brick onto another. You are not building, you are not the creator of that house. That is the difference. So may it be that by me, answer is written, Aham Likhani. May it be that by means of this body I can study, Aham Pathani. Like that. Uttamam. Astu. So, Likhatu. Kavita Bhagini? Spashtam va?
आम् धन्यवादः
अस्तु का पठितवती अत्र एतस्य उत्तरं लिखतु शैलिजा भगिनी उक्तवती अहं विस्मरामि एतस्य उत्तरं लिखतु
भगिनि एतस्य नाम रामः
भगिनी तस्मात् पूर्वं भगिनी सूत्रसङ्ख्या नव पुटसङ्ख्या नव एतस्य उत्तरं लिखतु पठतु भगिनी
एतस्य उत्तरं लिखतु भवान् कः
उत्तरं वदतु भगिनि
भवान् रामः
भवान् कः इत्युक्ते आप कौन?
अहं शैलजा.
अहं शैलजा. किन्तु कः इत्युक्ते लिङ्गं किम्?
नपुंसकलिङ्गं.
न कः?
कः पुल्लिङ्गं.
पुल्लिङ्गं, पुल्लिङ्गं.
भवान् कः? अहं
रामः. अहं रामः.
लक्ष्मणः. किमपि किमपि पुल्लिङ्ग् नाम अहं हनुमानः. अस्तु अग्रे.
भवती का? अहं सीता.
अहं सीता. अहं गीता. अहं शैलजा. अहं सुधा. अहं कविता. अस्तु. अहम् अपि च नाम अपि च विद्यार्थिनी इत्युक्ते मुख्यकार्यं यस्य कृतवती तदेव वदति. अहं विद्यार्थिनी. अहं गृहिणी. यदि पुंलिङ्ग् अस्ति चेत् भवान् कः? अहं विद्यार्थी. स्त्रीलिङ्ग् अस्ति चेत् अहं विद्यार्थिनी इति. अस्तु शशिकला भगिनी, अहम् इति योजयित्वा किमपि वाक्यं रचयतु.
अहं शशिकला.
अहं शशिकला.
अहम् अहं गृहिणी.
अहं
स्थपतिनी. स्थपतिनी च.
स्थपतिनी इत्युक्ते?
स्थपतिनी. ऐ एम् एन् आर्किटेक्ट्.
स्थपतिनी.
और् द डिक्शनरी सेस् गृहनिर्माणाध्यक्ष. गृहनिर्माणाध्यक्षिणी.
निर्माणाध्यक्ष.
इट्स् एस् फोर् आर्किटेक्ट्. ऐ थिङ्क् दट्स् मास्क्युलन्. सो गृहनिर्माणाध्यक्षिणी मेबि. ऐ डोण्ट् नो. सो ऐ सेड् स्थपतिनी. इट्स् ईसियर्.
स्थपतिनी. अस्तु अस्तु. धन्यवादः.
सुलभः.
किञ्चित् सुलभः. अहम् अहं गृहिणी इति उक्तवती. किमपि प्रश्न पृच्छतु भगिनि. कोऽपि
सम्बडि
सुलभ इत्युक्ते
भवती का?
एकनिमिष. सुलभ इत्युक्ते ईजि.
धन्यवादः.
भवती का?
भवती का? Somebody else has to answer.
Whom are you asking, Bhagini?
I am asking Kavita.
Kavita Bhagini. Bhagini, uttaram vadatu Bhagini.
Aham Kavita.
Aham Kavita. कविता भगिनी पृच्छतु.
I'm asking सुधा भगिनी. भवती का?
अहं सुधा.
अहं सुधा. अपि च अहं विद्यार्थिनी. वयं सर्वे विद्यार्थिन्यः. अस्ति वा? विद्यार्थिनी. अस्तु अस्तु. अग्रे 927. अस्तु. सर्वत्र अपि च अन्यत्र कुत्र तत्र एकत्र इति पदस्य योजयित्वा अपि च भवान् वा भवति इति पदे योजनेन किमपि लघुवाक्यं रचयतु. कविता भगिनी.
भवान महोदय कुत्र अस्ति?
भवान महोदय कुत्र अस्ति?
आपके भाई कहाँ रहते हैं या कहाँ है?
आपके भाई ना भगिनी?
नहीं, अच्छा, मैं भवान, सॉरी, कंफ्यूज.
भवान इज जस्ट प्रथमा विभक्ति.
ओके, सो आप.
आप, मैंने सोचा आपने बोला आप भाई, लाइक आप सर. भवान महोदय इज ऑल्सो ओके बिकॉज इट साउंड लाइक आप सर कहाँ रहते हैं, लाइक दैट. आप भाई कहाँ रहते हैं?
Okay, no, that was not the intention. Yeah.
That is the intention. I want you to practice that now. Boliye, vadatu bhagini.
Bhavan,
kutra.
Yeah, for masculine. Bhavan mahoday kutra asti. So, aap sir kahan rehte hain?
Nahi, aap kahan hain? Kutra.
Aap kahan hain? कुत्र अस्ति?
यदि यदि रहते हैं कुत्र वसति स्म, वसति स्म, हाँ, फुल डिफरेंट कंस्ट्रक्शन. राइट नाउ कुत्र अस्ति इत्युक्ते कहाँ है,
कहाँ है. हाँ, ठीक है,
उत्तमम. yes. उत्तमम. शिवरूपा भगिनी,
भगिनी, भवान तत्र अस्ति
इत्युक्ते
दट् मीन्स् वेर् आर् यू लिविङ्ग् फार्?
नो नो नो, भवान् भवान् इत्युक्ते भगिनि,
भवान् मीन्स् इट् फार् मेल् लैक् बाय्.
वाट् इत्युक्ते
महोदय लैक् द?
न न, इत्युक्ते आप, यू, फार्मल् यू.
Okay, where do you, are do you,
na na na, bagini, ek nimisha, ek nimisha. Bhavan tatra asti, tatra ichukte?
Far.
No, tatra ichukte? There.
Oh,
there.
Okay.
Means not near
you. You are there.
But, ah.
You are there.
Asti ichukte? Asti ichukte? Hain.
Oh, है. okay.
आप वहाँ हैं. यू आर देर, भवान तत्र अस्ति. उत्तमम्. अत्र सुधा भगिनी किमपि लघुवाक्यं वदतु भगिनी.
भवती कुत्र अस्ति?
भवती कुत्र अस्ति इत्युक्ते इत्युक्ते भगिनि,
यु आर् वेर्?
यु हु?
द फीमेल्.
आप महिला कहाँ हैं? उत्तमं. शैलजा भगिनि,
भवती गृहं कुत्र अस्ति?
भवती गृहं, यदि वयं नाम पृच्छतां, ओ कथं वदामः?
विरक्तिकं भवस्य,
भवत्याः गृहं,
भवत्याः,
भवस्य.
हौ डु यू आस्क् नेम्?
सॉरी,
डु यू आस्क् नेम् ऑफ समबडी? How do you ask name?
Bhavatyaha.
Bhavatyaha. Punaha vadatu bhagini.
So, Bhavatyaha gruham kutra asti.
Uttamam. Bhavatyaha graham.
Gruham.
Ichukte aapka ghar. Aap kon? Aap mahila ka ghar. Kutra asti. Kidhar hai?
Where?
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 Uttamam. Pragya bhagini. अस्ति वा प्रज्ञा भगिनी? प्रज्ञा भगिनी,
आम् आम् अस्मि भवती अत्र पश्यतु इतरत्र अन्यत्र न पश्यतु मा पश्यतु
सुन्दरं सुन्दरं पुनः पुनः मन्दं मन्दं वदतु भगिनि
आम् आम् भवती अत्र पश्यतु
अत्र
इतरत्र अन्यत्र अत्र तत्र न पश्यतु
न पश्यतु
मा पश्यतु
मा पश्यतु मा पश्यतु भवती अत्र पश्यतु पश्यतु लकार किम्
लोट् लकार
लोट् लकार प्रथमपुरुष एकवचन इत्युक्ते आप देखें भवती इत्युक्ते स्त्रीलिङ्ग् अस्ति चेत् भवती अत्र पश्यतु लुक् हियर् आप इधर देखें आप महिला इधर देखें अन्यत्र अन्यत्र इत्युक्ते एल्स्वेर् अन्यत्र अन्यत्र तत्र
तेर्
पुनः वदतु प्रज्ञा भगिनी
इतरत्र अत्र तत्र अन्यत्र मा पश्यतु
इतरत्र इतरत्र इत्युक्ते इधर् उधर् इधर् उधर् अत्र तत्र इधर् उधर् अगेन् शी इस् रिपीटिङ्ग् अत्र तत्र यहाँ वहाँ इधर् उधर् यहाँ वहाँ मा पश्यतु मा इत्युक्ते इट्स् आज्ञा टु से मे इट् बी देट् यू डोण्ट् मा डोण्ट् मत् मत् मा बिकम्स् मत् इन् हिन्दी मत् पश्यतु मत् देखिये यहाँ वा मत् देखिये आप सीधा इधर देखिये स्पष्टं वा सर्वेषां
आं भगिनि
सौन्दरं भगिनि
भवतः पुस्तकम् अत्र अस्ति
भवतः पुस्तकम् अत्र अस्ति इत्युक्ते षष्ठ विभक्ति का भगिनी
युवर् पुस्तकम् इस् हियर्
भवतः प्रातिपदिकं किं
भवान्
भवत् तकारात्
भवत्
भवतः विभक्ति का
षष्ठी षष्ठी विभक्ति
वचन
एकवचनम्
एकवचन भवत्यः पुस्तकं पुनः वदतु भगिनि
भवत्यः पुस्तकम् अत्र अस्ति
अत्र अस्ति अत्र इत्युक्ते
हियर्
हियर् यहाँ आपकी किताब यहाँ है उत्तमं सुन्दरं शशिकला भगिनी
भवन्तः पुस्तकानि एकत्र सन्ति
सुन्दरं भवन्तः इत्युक्ते
बहुवचनं फोर् भवतः भवान् फोर् भवान्
विभक्ति
विभक्ति
षष्ठी विभक्ति
आप सब की पुस्तकानि इत्युक्ते
बहुवचनं पुस्तकम् एकत्र इन् वन् प्लेस्
न बहुवचनम् अपि च लिङ्गम् अपि च
नपुंसकलिङ्गम्
अपि च विभक्ति
पुस्तकानि इस् त्रि
प्रथमा अत्र प्रथमा
प्रथमा
कानि सन्ति
पुस्तकानि सन्ति आर् देर् आर् देर्
पुस्तकानि सन्ति कानि सन्ति
पुस्तकानि सन्ति
पुस्तकानि सन्ति अस्ति वा कानि सन्ति पुस्तकानि सन्ति पुस्तकानि सब्जेक्ट्
ओके
सब्जेक्ट् इत्युक्ते प्रथमविभक्ति
प्रथमविभक्ति
पुनः वदतु पुनः वदतु भगिनि
वन्स् मोर् हा हा सोरि या 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 भवन्तः पुस्तकानि एकत्र सन्ति
एकत्र एकत्र इत्युक्ते
इन् वन् प्लेस्
इकट्ठा आप सबकी किताबें इकट्ठी हैं संति संति सुंदर सुंदर वाक्य भगिनी धन्यवाद अस्तु अधुना समय अतीत वयं स्थगयाम का अंतिम शांति पाठ वक्तुम इच्छति वा शैलजा भगिनी वक्तुम् इच्छति वा शान्तिपाठ सौन्दरं भगिनी कोऽपि वदतु वदतु
सर्वे भवन्तु
ओं पूर्णमद अपि च सर्वे
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः
अपि च पूर्णमद
ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओम्
सर्वेषां नमस्कारः
अग्रिमसप्ताहे
पुनः
नमस्कारः भगिनि
नमस्कारः भगिनि
नमस्कारः
धन्यवादः
धन्यवादः भगिनि
धन्यवादः भगिनि
धन्यवादः
भगिनि
आम् एकनिमिष एकनिमिष
आम् भगिनि